प्रशन्दमापरुणन्दीधितेगेर्मित्रम् भगमदितिन्नो नमस्याः पृषद्यो निःपञ्च होता शृणोत्पतोऽर्तबन्था असुरोमजो भुः प्रतिभेस्त ममदितर्जगृभ्यात्सो नुन्न माता हृद्यम् सुषेवम् ब्रह्म प्रियम् देवहितम् यदस्त्यहम् मित्रे वरुणे जन्मजो भो उदीरज कवितमम् कवीना मुनत्तैनमभिमध्वा घृतेन स नोपसो निप्रयता हितानि चन्द्राणि देवः सविता सुवाति समिन्द्रणो मनसा नेशिगोभिः संसोरभिर्हरिभस्सं स्वस्ति सम्ब्रह्मणा देवहितम् यदस्ति सन्देवानाम् सुमत्या यज्ञयानाम् देवो भगः सविता राजो अंश इन्द्रो वृत्रस्य सञ्जितो धनानाम् रुभुक्षावाज उत वापुरन्धिरवन्दुनो अमृता सस्तुरासाः मरुत्वतो अप्रदेतस्य जिष्णो रजोर्यतः प्रब्रवामाकृतानि न ते पूर्वे मघवन्नापरासो न वीर्या अन्नोतनः कश्चनाप उपस्तु हि प्रथमम् रत्नधेयम् बृहस्पतिम् सनिता रन्धनानाम् यः शंसदेस्त्वपदेशम् भविष्ठः पुरो वसुरागमज्जोहवानम् तवोतिभिः स च माना अरिष्टा बृहस्पते भगवानः सुवीराः ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदा स्वभगास्तेषु राजाः विसर्माणम् कृणुहि विद्मेषाम् ये भुञ्जते अवृणन्तो न उक्थैः अपौरतान् प्रसवे वा वृधानान् ब्रह्मद्विषः सूर्याद्यापयस्व य ओहते रक्षसो देववीतावचक्रेभिस्तम् मरुतो निजात यो वश्यमीम् शशमानस्य निन्दा तुच्छ्यान् कामान् करते सिष्विदानः तमुष्टु हिजस्विषः स्वधन्वाजो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रन्नवोभिर्देवमसुरन्दवस्य यमो नसो अपसो ये सुहस्ता वृष्टः पत्नीर्नद्यो बिभ्रतष्टोः सरस्वती बृहद्दिवोतराकादशस्यन्तेर्वरिवस्यन्तु शुभ्राः प्रसो महेशु शरणाय मेधाम् गिरम् भरेण व्यसेञ्जायमानाम् य आहनादुहितुर्भक्षणा सुरूपामिनानो अकृणोदिदन्नाः प्रसुष्टुति स्तनयन्तम् रुवन्त बिळस्पतिम् जरितर्नो नमस्याः यो अब्दिमाम् उदनिमाम् इयर्ति प्रविद्युतारोदसी उक्षमाणः एष स्तोमो मारुतम् शर्धो अच्छा रुद्रस्य सोनोऽङ्ग्रियो मञ्जोऽङ्ग्रुदस्याः कामो राजे हवते मा स्वस्त्युपस्त्व हि पृषदश्वाम् अजासाः प्रैषस्तोमः पृथिवीमन्तरिक्षम् वनस्पतेऽङ्ग्रोषधि राजे अश्याः देवो देवः स्वहवो भूतु मह्यम् मानो माता पृथिवी दुर्मतौ धात् उरौ देव अनिबाधे स्याम समश्विनोरवसा नूतनेन मयो भुवा सुप्रणीति गमेम आनो रजिम्बहतमोद वीराना विश्वान्यमृतासौ भगानि